Now, we hear chapter 11 from Bhagavad Gita, the universal form. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Om Namo Bhagavate Vasudevaya. Arjuna uvacha madanugrahaya paramam guhyam adhyatmam asajnitam. Madanugrahaya paramam guhyam adhyatma sanyitam. Yat tvayoktam vachastena mohoyam vigato mama. Bhavapyauhi bhutanam shrutau vistarasho maya tvatta kamalapatraksha mahatmyam apicha avyayam. Etametad yathatta tvam atmanam parameshvara drushtum icchami te rupam aishvarvam aishvaram purushottamam. Manyase yadi tat shakyam maya drushtum iti prabho yogeshvara tato me tvam darshayatmanam avyayam. Shri Bhagwan uvacha pashyame partha rupani shatashotha sahasrasha nana vitani divyani nana varna krutini cha. Pashya adityan vasun rudran ashvinau marutastatha bahuni adrishtapurvani pashyashcharyani bharata. Ihaikastam jagatkrutnam pashyadya sacharacharam mamadehe gudakesha yachanyad drishtum icchasi natumam shakshyase drishtum natumam shakyase drishtum anenaiva svachakshusha divyam dadati te chakshuh pashyame yogame maishvara. Sanjay uvacha eva muktva tato rajan mahayoge shvaro hari darshayamas arthaya paramam rupameshwaram. Anekavatra vaktra nayanam anekadbhuta darshanam अनेक दिव्यावरणम् दिव्यानेको द्युतायुधम् दिव्यमाल्याम्बरधरम् दिव्यमाल्याम्बरधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयम् देवम् अनन्तम् विश्वतो मुखम् दिवि सूर्य सहस्रस्य भवेद् युगपद् उत्थिता यदि भा सदृपाः सदृशी सा स्यादवासस्तस्य महात्मन तत्रैकस्थम् जगत्कृष्णम् रविभक्तम् अनेकधा अपश्यदेव देवस्य अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जय प्रणम्य शिरसा देवम् कृताञ्जलिरभाषत अर्जुन उवाच पश्यामि देवा देवांस्तव देवदेहे सर्वांस्तथा भूतविशेषसङ्गान् ब्रह्माणमीशम् कमलासनस्थम् ऋषींश्च सर्वा नुरगांश्च दिव्यान् अनेकबाहो दरवक्त्रनेत्रम् पश्यामि त्वाम् सर्वतोऽनन्तरूपम् नान्तम् न मध्यम् न पुनस्तवादिम् पश्यामि विश्वेश्वरविश्वरूप किरीटिनम् गदिनम् चक्रिणम् च तेजो राशिम् सर्वतो दीप्तिम् अनन्तम् तेजो राशिम् सर्वतो दीप्तिमन्तम् पश्यामि त्वाम् दुर्निरीक्षम् समन्तात् दीप्तान्नलार्क द्युतिमप्रमेयम् त्वमक्षरम् परमम् वेदितव्यम् त्वमस्य विश्वस्य परम् निदानम् त्वम् अव्ययः शाश्वतधर्म गोप्ता सनातनस्त्वम् पुरुषो मतो मे नादिमध्यान्तमनन्तवीर्यम् अनन्तबाहुम् शशिसूर्यनेत्रम् पश्यामि त्वाम् दीप्तहुताश वक्रम् स्वतेजसा विश्वमिदम् तपन्तम् द्या वा पृथिव्यो हृदमन्तरम् हि व्याप्त्वम् त्वयैकेन दिशश्च सर्वा दृष्ट्वाद्भूतम् रूपमुग्रम् तवेदम् लोकत्रयम् प्रव्यथितम् महात्मन् अमीहि त्वाम् सूरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृह्णन्ति स्वस्ति इति उक्त्वा महर्षि सिद्ध संगा स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः त्रादित्या वसवोच साध्या विश्वेश्विनौ मरुतश्चोष्मपाश्च गन्धर्वयक्षा सुरसिद्ध संगा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे रूपं महत्ते बहुवक्रनेत्रं महाबाहो बहुबाहो रूपादम् बहूदरं बहुदृष्टां करालं दृष्ट्वा लोकाः प्रव्यथितास्तताम् नभस्पृशं दीप्तमनेकवर्णं व्याताननं दीप्तविशालनेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दा निशमं च विष्णौ दृष्टा कराला निचते मुखानि दृष्टैव काला नलसन्निभानि दिशो न जाने न लभे च शर्मा प्रसीद देवे शजगन्निवास अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपाल सङ्गैः भीष्मो द्रोणः सूतपुत्रस्तथासौ सहस्मदीयै रभियोधमुख्यै वक्राणि ते त्वरमाणा विशन्ति दंष्ट्रा कराला निभयानकानि केचिद् विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तमाङ्गैः यथा नदीनां बहोऽम्बुवेगा समुद्रमेवा विमुखा द्रवन्ति तथा तवामि नरलोकवीरा विशन्ति वक्राण्यभिविज्ज्वलन्ति यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशा यसमृद्धवेगा तथैव नाशाय विशन्ति लोकास् तवामि वक्राणि समृद्धवेगा लीलीयसे ग्रसमाना समन्तर्लोकान् समग्रान् वदनैर्ज्वलद्भिः तेजोभिरापूर्य जगत्समग्रम् भासस्तौग्राः प्रतपन्ति विष्णो आख्याहिमेको भवानुग्ररूपो नमोऽस्तु ते वर प्रसीद विज्ञातुमिच्छामि भवन्तमाद्यम् न हि प्रजानामि तव प्रवृत्तिम् श्री भगवान् उवाच कालोऽस्मि लोक क्षयकृत् प्रवृद्धो लोकान् समाहर्तुम् इह प्रवृत्त ऋतेऽपि त्वाम् न भविष्यन्ति सर्वे एव स्थिताः प्रत्यनिकेषु युद्धाः तस्मात् त्वमुत्तिष्ठ यशो लभस्व जीत्वा शत्रुं भुङ्क्ष्व राज्यं समृद्धम् मयैवेते नियताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्या नपि योधवीरान् मया हतांस्त्वं जहिमा व्यतिष्ठा युद्धस्वजेता सिरणे सपत्नान। संजय उवाच एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमाना किरीटी नमस्कृत्वा भूय एवा कृष्णं सगद्गदं भीतभीत प्रणम्य। अर्जुन उवाच स्थाने ऋषिकेश तव प्रकीर्त्या जगत् प्ररुष्यत्यनुरज्यते च रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्गा। कस्माच्च तेन नमिरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे अनन्तदेवेश जगन्निवास त्वमक्षरम् सदसत्तत्परम् यत् त्वमादिदेव पुरुषा पुराणस् त्वमस्य विश्वस्य परम् निदानम् वेत्तासि वेद्यम् च परम् च धाम त्वया ततम् विश्वमन्तरूपम्। वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वम् प्रपितामहश्च नमो नमस्तेस्तु सहस्र कृत्वा पुनश्च भूयोऽपि नमो नमस्ते। नमः पुरस्तादत्पृष्टतस्ते नमोऽस्तु ते सर्वत एव सर्व अनन्तवीर्या मितविक्रमस्त्वम् सर्वम् समाप्नो शिततोऽसि सर्वः। सखेति मत्वा प्रशभम् यदुक्तम् हे कृष्ण हे या दव हे सखेति अजानता महिमानम् तवेदम् मया प्रमादात् प्रणयेन वापि यच्चावहासात् तमसत्कृतोऽसि विहारशय्या सनभोजनेषु एकोतवाप्य अच्युत सत्समक्षम् तत्समक्षम् तक्षामये त्वामहम् अप्रमेयम्। पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् न त्वत्समोऽस्ति अभ्यधिकः कुतोऽन्यो लोकत्रयेभ्य प्रतिमप्रभव तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वाम् अहमीशमिद्यम् पितेव पुत्रस्य सखेव सख्यो प्रियः प्रिया यारसि देव सोढुम्। अदृष्टपूर्वम् ऋषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितम् मनो मे तदेव मे दर्शय देवरूपम् प्रसीद देवे शजगन्निवास। किरीटिनम् गदिनम् चक्रहस्तम् इच्छामि त्वाम् द्रष्टुम् अहम् तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते। श्रीभगवान् उवाच मया प्रसन्नेन तवार्जुनेदम् रूपम् परम् दर्शितम् आत्मयोगात् तेजोमयम् विश्वमनन्तमाद्यम् यन्मे त्वदन्ये ननदृष्टपूर्वम् न वेदयज्ञाध्ययनैर्नदानैर् न च क्रियाभिर्न तपोभिरुग्रैः एवम् रूपा शक्यां नृलोके दृष्टुम् त्वदन्ये न कुरु प्रवीर मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपम् घोरमिदृङ्गमेदम् व्यपेतवि प्रीतमनाः पुनस्त्वम् तदेव मेरूपमिदम् प्रपश्य सञ्जय उवाच इत्यर्जुनम् वासुदेवस्ततोक्त्वा स्वकम् रूपम् दर्शयमास भूय आश्वासयामास च भीतमेनम् भूत्वा पुनः सौम्यवपुर्महात्मा अर्जुन उवाच दृष्ट्वेदम् मानुषम् रूपम् तव सौम्य जनार्दन इदानीमस्मिम् संवृत्त सचेता प्रकृतिम् गता श्रीभगवान् उवाच सुदुर्दर्शमिदम् रूपम् दृष्टवानसि यन्मम देवा अपि अस्य रूपस्य नित्यम् दर्शकाङ्क्षिणः नाहम् वेदेर्न तपसा न दानेन चेज्जया शक्य एवम् विदो दृष्टुम् दृष्टवानसि माम् यथा भक्त्या तु अनन्या शक्य अहमेवम् विदोऽर्जुन ज्ञातुम् दृष्टुम् च तत्त्वेन प्रवेष्टुम् च परन्तप मत्कर्म कृन् मत्पर्मो मद्भक्तः सङ्गवर्जितः निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव हरे कृष्ण 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 हरे 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 राम हरे राम 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 हरे हरे श्री कृष्णार्पणमस्तु हरे कृष्ण 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 हरे 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 राम हरे राम 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 हरे हरे